असूत सद्यः कुसुमान्यशोकः स्कन्धात् प्रभृत्येव सपल्लवानि पादेन नापैक्षत सुन्दरीणां सम्पर्कमासिञ्चित नूपुरेण
असूतेति अशोकः वृक्षविशेषः सद्यः स्कन्धात् प्रकाण्डात् प्रभृत्येव स्कन्धात् आरभ्येत्यर्थः भाष्यकारवचनात् प्रभृतियोगे पञ्चमीति कैयटः भाष्यञ्च मूलात् प्रभृति अग्राद्वृक्षान् तक्ष्णुवन्ति इति कार्तिक्याः प्रभृति आग्रहायणीमासे इत्यादि सपल्लवानि कुसुमानि असूत उभयमपि अजीजनदित्यर्थः आसिञ्जितः नूपुरः यस्य तेन सिञ्जधातोः अकर्मक इत्यादिना कर्तरि तः सुन्दरीणाम् पादेन सम्पर्कम् ताडनम् नापैक्षत सनूपुररवेण स्त्रीचरणेन अभिताडनम् दोहदम् यदशोकस्य ततः पुष्पोद्गमो भवेत् इति तथा हि पादाहतः प्रमदया विकसत्यशोकः शोकम् जहाति बकुलो मुखसीधुसिक्तः आलोकितः कुरबकः कुरुते विकासम् आलोडितस्तिलक उत्कलिको विभाति इति
सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिम् नवचूतबाणे निवेशयामास मधुर्द्विरेफान् नामाक्षराणीव मनोभवस्य
सद्य इति मधुः वसन्त एव इषुकारः प्रवालोद्गमाः पल्लवाङ्कुराः एव चारूणि पत्राणि पक्षाः यस्य तस्मिन् पत्रम् वाहनपक्षयोः इत्यमरः नवम् चूतम् चूतकुसुमम् तदेव बाणः तस्मिन् नवचूतबाणे समाप्तिम् नीते सति सद्यः मनोभवस्य धन्विनः नामाक्षराणीव द्विरेफान् भ्रमरान् निवेशयामास निदधौ अत्र प्रवालपत्र इत्याद्येकदेशविवर्तिरूपकम् मधोः इषुकारत्वरूपम् यन्नामाक्षराणीवेत्युत्प्रेक्षायान्निमित्तम् इत्येकदेशविवर्तिरूपकोत्थापिता इयम् उत्प्रेक्षा
वर्णप्रकर्षे सति कर्णिकारम् दुनोति निर्गन्धतया स्म चेतः प्रायेण सामग्र्यविधौ गुणानाम् पराङ्मुखी विश्वसृजः प्रवृत्तिः
वर्णेति कर्णिकारम् कर्णिकारकुसुमम् अवयवे च प्राण्योषधिवृक्षेभ्यः इत्युत्पन्नस्य तद्धितस्य पुष्पमूलेषु बहुलम् इति लुक् एवम् अन्यत्रापि द्रष्टव्यम् वर्णप्रकर्षे वर्णोत्कर्षे सत्यपि निर्गन्धतया हेतुना चेतः दुनोति स्म पर्यतापयत् लट्स्मे इति भूतार्थे लट् तथा हि प्रायेण विश्वसृजः विधातुः प्रवृत्तिः गुणानाम् सामग्र्यविधौ साकल्यसम्पादनविषये पराङ्मुखी सर्वत्रापि वस्तुनि किञ्चिद्वैकल्यम् सम्पादयति यथा चन्द्रे कलङ्कः अतः कर्णिकारेऽपि नैर्गन्ध्यम् युज्यत इति भावः सामान्येन विशेषसमर्थनरूपः अर्थान्तरन्यासोऽलङ्कारः
बालेन्दुवक्राण्यविकासभावात् बभुः पलाशान्यतिलोहितानि सद्यो वसन्तेन समागतानाम् नखक्षतानीव वनस्थलीनाम्
बालेन्द्विति अविकासभावात् निर्विकासत्वात् मुकुलभावाद्धेतोः बालेन्दुरिव वक्त्राणि अतिलोहितानि अतिरक्तानि पलाशानि किंशुकपुष्पाणि पलाशे किंशुकपर्णः इत्यमरः वसन्तेन पुंसा समागतानां संगतानां वनस्थलीनां स्त्रीणां सद्यः सद्यो दत्तानि पुराणेषु अतिलौहित्याभावादिति भावः नखक्षतानीव बभुः अत्र वसन्तस्य वनस्थलीनाञ्च विशेषणसाधारण्यात् नायकव्यवहारप्रतीतेः समासोक्तिस्तावदस्ति नखक्षतानीव इति जातिस्वरूपोत्प्रेक्षा वक्रत्वलौहित्यगुणनिमित्ता जागर्ति सा च नायकव्यवहाराश्रितसमासोक्तिगर्भिण्येव उत्तिष्ठत इत्युभयोः एककालतैव विशेषणसामर्थ्यात् अप्रस्तुतस्य गम्यत्वे समासोक्तिरिष्यते इति हि लक्षणम्
लग्नद्विरेफाञ्जनभक्तिचित्रम् मुखे मधुश्रीस्तिलकम् प्रकाश्य रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलञ्चकार
लग्नेति मधुश्रीः वसन्तलक्ष्मीः लग्नद्विरेफा एव अञ्जनभक्तयः कज्जलरचनाः ताभिः चित्रम् चित्रवर्णम् तिलकम् पुष्पविशेषमेव तिलकम् विशेषकम् मुखम् प्रारम्भः तस्मिन्नेव मुखे वक्त्रे प्रकाश्य प्रकटय्य बालारुणकोमलेन बालार्कसुन्दरेण रागेण अरुणिम्ना तेनेव लाक्षारागेण चूतप्रवाल एव ओष्ठः तम् चूतप्रवालोष्ठम् अलञ्चकार प्रसाधयामास अत्र रूपकालङ्कारः
मृगाः प्रियालद्रुममञ्जरीणाम् रजः कणैर्विघ्नितदृष्टिपाताः मदोद्धताः प्रत्यनिलम् विचेरुः वनस्थलीर्मर्मरपत्रमोक्षाः
मृगा इति प्रियालद्रुमाः राजादनवृक्षाः राजादनः प्रियालस्यात् इत्यमरः तेषाम् मञ्जर्यः तासाम् रजःकणैः विघ्निताः सञ्जातविघ्नाः दृष्टीनाम् पाताः प्रसादाः येषाम् ते तथोक्ताः मदोद्धताः मृगाः प्रत्यनिलम् अनिलाभिमुखम् मर्मराः मर्मरशब्दवन्तः पत्रमोक्षाः जीर्णपर्णपाताः यासु ताः वनस्थलीः विचेरुः वनप्रदेशेषु चरन्ति स्म देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् इति चरतेः सकर्मकत्वम्
चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरम् चुकूज मनस्विनीमानविघातदक्षम् तदेव जातम् वचनम् स्मरस्य
चूताङ्कुरेति चूताङ्कुराणाम् आस्वादेन कषायकण्ठः रक्तकण्ठः रसभावपथे रक्ते कषायः इति केशवः पुमान् कोकिलः पुंस्कोकिलः पुङ्ग्रहणम् प्रागल्भ्यद्योतनार्थम् मधुरम् चुकूजेति यत्तत् कूजनमेव मनस्विनीनाम् मानविघाते रोषनिरासे दक्षम् स्मरस्य वचनम् मानम् त्यजतेति आज्ञावचनम् जातम् कोकिलकूजितश्रवणानन्तरम् स्मराज्ञप्ता इव मानम् जहुरित्यर्थः
हिमव्यपायाद्विशदाधराणाम् ఆపాండరీభూత ముఖచ్ఛవీనాం స్వేదోద్గమః కిం పురుషాంగనానాం చక్రే పదం పత్రవిశేషకేషు.
హిమేతి హిమస్య వ్యపాయాత్ అపగమాత్ విశదాః నీరుజాః అధరాః ఓష్ఠాః యాసాం తాసాం ఆపాండరీభూత ముఖచ్ఛవీనాం. కుంకుమ పరిహారాదితి భావః కిం పురుషాంగనానాం పత్రవిశేషకేషు పత్రరచనాసు స్వేదోద్గమః పదం చక్రే. ఘర్మోదయాత్ స్వేదోదయః అభూదిత్యర్థః. విశదాధరత్వం మధూచ్ఛిష్టరాహిత్యాదితి భావః. హేమంతేషు నార్యః బింబోష్ఠేషు మధూచ్ఛిష్టం శీతభయాత్ దదతీతి ప్రసిద్ధం.
తపస్వినః స్థాణు వనౌకసస్తాం ఆకాలికీం వీక్ష్య మధుప్రవృత్తిం ప్రయత్న సంస్తంభిత విక్రియాణాం కథంచిదీశాః మనసాం బభూవుః.
తపస్విన ఇతి స్థాణోః వనం ఓకః ఏషాంతే తపస్వినః తత్రత్యాః మునయః. సమానకాలే ఆద్యంతౌ అస్యాః ఆకాలికీం అకాలభవత్వాత్ ఉత్పత్త్యనంతర వినాశినీం ఇత్యర్థః. ఆకాలికడాద్యంతవచనే ఇతి సమానకాలాత్ ఇకట్ ప్రత్యయః ప్రకృతేః ఆకాల ఆదేశశ్చ నిపాతితః. టిడ్ఢాణయ్య ఇత్యాదినా ngīp కేచిత్ అకాలాత్ దేహాత్ అధ్యాత్మాదిత్వాత్ భవార్థే ఠగిత్యాహుః. తాం ఆకాలికీం మధుప్రవృత్తిం వీక్ష్య ప్రయత్నేన సంస్తంభిత విక్రియాణాం నిరుద్ధ వికారాణాం మనసాం కథంచిత్ ఈశాః నియంతారః బభూవుః.
తం దేశమారోపిత పుష్పచాపే రతిద్వితీయే మదనే ప్రపన్నే కాష్ఠాగత స్నేహ రసానువిద్ధం ద్వంద్వాని భావం క్రియయా వివవృః.
తమితి ఆరోపితం అధిజ్యం కృతం పుష్పచాపం యేన తస్మిన్ రతిః ద్వితీయా యస్య తస్మిన్ రతిసహాయే మదనే తం దేశం స్థాణ్వాశ్రమం ప్రపన్నే ప్రాప్తే సతి ద్వంద్వాని స్థావరాణి జంగమాని చ మిథునాని కాష్ఠోత్కర్షః. కాష్ఠోత్కర్షే స్థితౌ దిశి ఇత్యమరః. తాం గతః యః స్నేహః ఇష్టసాధన నిబంధనః ప్రేమాపరనామా మమతాభిమానః. ప్రేమానా ప్రియతా హార్దం ప్రేమస్నేహః ఇత్యమరః. త ఏవ రసః తేన అనువిద్ధం సంపృక్తం భావం రత్యాఖ్యం శృంగారభావం క్రియయా కార్యభూతయా చేష్టయా వివవృః ప్రకటీచక్రుః. శృంగారచేష్టాః ప్రావర్తంత ఇత్యర్థః. తాశ్చేష్టాః ఆహ మధు ఇత్యాదిభిః చతుర్భిః.
మధుద్విరేఫః కుసుమైకపాత్రే పపౌ ప్రియాం స్వాం అనువర్తమానః శృంగేణ చ స్పర్శ నిమీలితాక్షీం మృగీం అకండూయత కృష్ణసారః.
మధ్విత ద్వౌ రేఫౌ వర్ణవిశేషౌ యస్య సః ద్విరేఫః భ్రమరః. ఉపచారాత్ తదర్థోపి ద్విరేఫ ఉచ్యతే. యథాః కయ్యటః శబ్దధర్మేణాప్యర్థస్య వ్యపదేశో దృశ్యతే. యథా భ్రమరశబ్దస్య ద్విరేఫత్వాత్ ద్విరేఫో భ్రమరః ఇతి. కుసుమం ఏవ ఏకం సాధారణం పాత్రం తస్మిన్ మధు మకరందం మధు మధ్యే పుష్పరసే ఇతి విశ్వః స్వాం ప్రియాం భృంగీం అనువర్తమానః అనుసరన్ పపౌ తత్ పీతశేషం పపావిత్యర్థః కృష్ణశ్చాసౌ సారః శవలశ్చ కృష్ణసారః కృష్ణమృగః వర్ణో వర్ణేన ఇతి సమాసః స్పర్శేన స్పర్శసుఖేన నిమీలితాక్షీం మృగీం శృంగేణ అకండూయత ఘర్షితవాన్ కండ్వాదిభ్యో యక్ ఇతి యక్ తతః కర్తరి లంగ్.